ओम नमो भगवते वासुदेवाय। अथ द्विसप्ततितमोऽध्यायः। श्रीशुक उवाच। एकदा तु सभा मध्ये आस्थितो मुनिभिर्वृतः ब्राह्मणैः क्षत्रियैर्वैश्यैर्भ्रातृभिश्च युधिष्ठिरः आचार्यैः कुलवृद्धैश्च ज्ञातिसम्बन्धिबान्धवैः शृण्वतामेव चैते सामाभाष्येदमुवाचः। युधिष्ठिर उवाच। क्रतुराजेन गोविन्द राजसूयेन पावनीः यक्ष्ये विभूतिर्भवतस्तत्सम्पादयनः प्रभो त्वत्पादुके अविरतम् पर्ये चरन्ति ध्यायन्त्यभद्रनशने सुचयो गृणन्ति विन्दन्ति ते कमलनाभभवापवर्गमाशासते यदित आशिष ईशनान्ये तद्देवदेव भवतश्चरणारविन्द सेवानुभावमिह पश्यतु लोक एषः ये त्वाम् भजन्ति न भजन्त्युत वोभयेषाम् निष्ठाम् प्रदर्शय विभो कुरु सृञ्जयानाम् न ब्रह्मण स्वपरभेदमतिस्तव स्यात् सर्वात्मनः समदृशः स्वसुखानुभूतेः संसेवताम् सुरतरो रिवते प्रसादः सेवानुरूपमुदयो न विपर्ययोऽत्र। श्रीभगवानुवाच। सम्यग् व्यवसितम् राजन् भवता शत्रुकर्षन कल्याणी येन ते कीर्तिर्लोकाननुभविष्यति ऋषीणाम् पितृदेवानाम् सुहृदामपि नः प्रभो सर्वेषामपि भूतानामीप्सितः क्रतुराडयम् विजित्य नृपतीन् सर्वान् कृत्वा च जगतीम् वशे संभृत्य सर्वसम्भारानाहरस्व महाक्रतुम् एते ते भ्रातरो राजन् लोकपालांश सम्भवाः जितोऽस्म्यात्मवता तेऽहम् दुर्जयो यो कृतात्मभिः न कश्चिन्मत्परम् लोके तेजसा यशसा श्रिया विभूतिभिर्वाभिभवे देवोऽपि किमुपार्थिवः। श्रीशुक उवाच। निशम्य भगवद्गीतम् प्रीतफुल्लमुखाम्बुजः भ्रातॄन् दिग्विजये युङ्क्त विष्णुतेजोपबृंहितान् सह देवम् दक्षिणस्यामादिशत् सहसृञ्जयैः दिशि प्रतीच्याम् नकुलमुदीच्याम् सव्यसाचिनम् प्राच्याम् मृगोदरम् मत्स्यैः केकयैः सह मद्रकैः ते विजित्य नृपान् वीरा आजरुर्दिग्भ्य ओजसा अजातशत्रवे भूरि द्रविणम् नृपयक्षते श्रुत्वा जितम् जरासन्धम् नृपतेऽर्ध्यायतो हरिः आहोपायम् तमेवाद्य उद्धवो यमुवाचः। भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधराश्रयः जग्मुर्गिरिव्रजम् तात बृहद्रथसुतो यतः ते गत्वा तिथ्यवेलायाम् गृहेषु गृहमेधिनम् ब्रह्मण्यम् समयाचेरन् राजन्या ब्रह्मलिङ्गिनः राजन् विध्यतिथीन् प्राप्तानर्थिनो दूरमागतान् तन्नः प्रयच्छ भद्रम् ते यद्वयम् कामयामहे किम् दुर्मर्षम् तितिक्षूणाम् किमकार्यमसाधुभिः किम् न देयम् वदान्यानाम् कः परः समदर्शिनाम् यो नित्येन शरीरेण सताम् गेयम् यशो ध्रुवम् नाचिनोति स्वयम् कल्पः स वाच्यः शोच्य एव सः हरिश्चन्द्रोरन्तिदेव उञ्चवृत्तिः शिबिर्बलिः व्याधः कपोतो बहवो यद्ध्रुवेण ध्रुवम् गताः। श्रीशुक उवाच। स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि राजन्यबन्धोन् विज्ञाय दृष्टपूर्वानचिन्तयत् राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति ददामि भीक्षितम् तेभ्य आत्मानमपि दुस्त्यजम् बलेर्नुश्रूयते कीर्तिर्वितता दिक्ष्वकल्मषा ऐश्वर्याद् भ्रंसितस्यापि विप्रव्याजेन विष्णुना श्रियम् जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे जानन्नपि महीम् प्रादाद् वार्यमाणोऽपि दैत्यराट् जीवता ब्राह्मणार्थाय कोऽन्वर्थः क्षत्रबन्धुना देहेन पतमानेन नेहता विपुलम् यशः इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान् हे विप्राव्रियताम् कामो ददाम्यात्मशिरोऽपि वः। श्रीभगवानुवाच। युद्धम् नो देहि राजेन्द्र द्वन्द्वसो यदि मन्यते युद्धार्थिनो वयम् प्राप्ता राजन्या नान्यकाङ्क्षिणः असौ वृकोदरः पार्थस्तस्य भ्रातार्जुनो ह्ययम् अनयोर्मातुलेयम् माम् कृष्णम् जानीहि ते रिपुम् एवमावेदितो राजा जहासोच्चैः स्ममागतः आह चामर्षितो मन्दा युद्धम् तर्हि ददामि वः न त्वया भीरुणा योत्स्ये युधि विक्लव चेतसा मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः अयं तु वयसा तुल्यो नापि सत्त्वो न मे समः अर्जुनो न भवेद् योद्धा भीमस्तुल्य बलो मम। इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदां द्वितीयां स्वयमादाय निर्जगाम पुराद् बहिः। ततः समे खले वीरौ संयुक्ता वितरेतरौ जगन्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ मण्डलानि विचित्राणि सव्यं दक्षिणमेव च चरतो शुशुभे युद्धं नटयोरिव रङ्गिणोः। ततश्चटचटा शब्दो वज्रनिष्पेष सन्निभः गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः। ते वै गदे भुजजवेन निपात्यमाने अन्योन्यतोऽंसकटिपादकरोरुजत्रून् चूर्णी बभूवतुरुपेत्ययथार्कशाखे संयुध्यतोर्द्विहृदयोरिव दीप्तमन्व्योः। इत्थं तयो प्रहतयोर्गदयोर्नृवीरौ क्रुद्धौ स्वमुष्टिभिरयः स्पर्शैरपिंष्टाम् शब्दस्तयो प्रहरतोरिभयोरिवासीन् निर्घातवज्रपरुषस्थलताडनोत्थः तयोरेवं प्रहरतोः समशिक्षा बलौजसोः निर्विशेषमभूत् युद्धमक्षीणजवयोर्नृप। एवं तयोर्महाराज युध्यतो सप्तविंशतिः दिनानि निरगंस्तत्र सुहृद्वन्निषितिष्ठतोः। एकदा मातुलेयं वै प्राहराजन् वृकोदरः न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव शत्रोर्जन्ममृति विद्वान् जीवितं च जराकृतं पार्थमाप्याययन् स्वेन तेजसा चिन्तयद्धरिः। सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः दर्शयामास विटपं पाटयन्निव संज्ञया। तद्विज्ञाय महासत्त्वो भीमः प्रहरतां वरः गृहीत्वा पादयोः शत्रुं पातयामास भूतले। एकं पादं पदाक्रम्य दौर्भ्यामन्यं प्रगृह्य सः उदतः पाटयामास शाखामिव महागजः। एकपादोरुवृषण कटिपृष्ठस्तनांसके एकबाहवक्षिभ्रूकर्णे शकले ददृशुः प्रजाः। हाहाकारो महानासीन् निहते मगधेश्वरे पूजयामास दुर्भीमं परिरभ्य जयाच्युतौ। सह देवं तत्तनयं भगवान् भूतभावनः अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः। मोचयामास राजन्यान् समृद्धा मागधेन ये। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्धवधो नाम द्विसप्ततितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषासि मां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।